एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः प्रतिनिधिसभाया ह्यस्तनोपवेशे विभिन्नानाम् त्रयाणाम् निकायानाम् वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि न्याय संसदीय विषय मन्त्रिणा शोभिता गौतम इत्यनया निर्वाचनायोगस्य एकोनविंशतितमम् गतार्थिकवर्षीयम् वार्षिकम् प्रतिवेदनम् राष्ट्रिय सुरक्षा परिषदः अष्टमम् वार्षिकम् प्रतिवेदनम् राष्ट्रिय महिलायोगस्य अष्टादशतमम् वार्षिकम् प्रतिवेदनम् च सभा समक्षम् प्रस्तुतानि सन्ति। एवमेव ह्यस्तनोपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः विधि मन्त्रिणा गौतम इत्यनया प्रस्तुतम् एतद्विक्रम वर्षीयम् राष्ट्रिय सेवादल विधेयकम् आधृत्य विचार्यताम् इति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। तत्पूर्वम् प्रतिनिधिसभायाः ह्यस्तनोपवेशे गृहमन्त्री सुदन गुरुङ आत्मदाहानन्तरम् मृतस्य मुगुजनपदस्य गणेश नेपाली इत्यस्य उपचाराय जीवनरक्षायै च सर्वकारस्य पक्षतः यथासम्भवम् प्रयासो विहिता सन्नपि सफलता न प्राप्तेति अगदत्। गृहमन्त्री गुरुङ गणेश नेपाली इत्यस्य मृत्योः प्रकरणस्य अनुसन्धानाय प्रहरी महानिरीक्षकस्य गोविन्द थपलिया इत्यस्य संयोजकत्वे पञ्चसदस्य त्मिका समितिः संघटितास्तीति असूचयत्। तदवसरे गृहमन्त्री गुरुङ प्राचीन विदेह व्यवस्थायाश्च कारणेन जेन्जी आन्दोलनस्य याचनाम् जनापेक्षाम् च पूरयितुम् सक्ता नास्ति, परम् सर्वकारस्य कार्यसञ्चालने आशंकाम् न कर्तुम् सर्वान् अनुरुणत्। तत्पूर्वम् उपवेशे मुगुजनपदस्य सांसद खड़क बहादुर शाही राज्यस्य तृतीय पूर्णायाः नीतेः कारणेन गणेश नेपाली आत्मदाये विवशो जात इति चर्चयन् दण्डवृद्ध्या विधेः क्रियान्वयनम् भविष्यतीति भ्रमात् मुक्तो भवितुम् सर्वकारस्य ध्यानम् आकर्षयत्। उपवेशस्य शून्यसमये सांसदै कर्षकेभ्यः समयेव मलम् प्रदातुम् भूयो भूय विद्युत्तः अवरोधस्य समस्याम् समाधातुम् मादकौषध नियमने ध्यानम् प्रदातुम् च सर्वकारस्य ध्यानाकर्षणम् विहितम् आसीत्। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव आषाढमासस्य त्रिंशे दिवसे मंगलवासरे पूर्वाह्नस्य एकादशवादने वस्ता। राष्ट्रियसभाया ह्यस्तनोपवेशे सांसदै सह प्रश्नोत्तर कार्यक्रमे कृषि वन पर्यावरण मन्त्री गीता चौधरी जलवायु सम्बद्धायाम् नीत्याम् महिलादिवासी जनजाति मधेसी दलितोत्पीडिताङ्गतायुत व्यक्तिनाम् यूनाम् च समान सहभागितायाः न्यायपूर्णाधिकाराणाम् च सुनिश्चयनम् भविष्यतीति प्रतिबद्धताम् व्यक्तवती वर्तते। तत्पूर्वम् उपवेशस्य शून्याकस्मिक समययोः सांसदैः परह्यः त्रिपुरेश्वरस्थाने आत्मदाहाय प्रयासम् विहितवतः मुगुजनपदस्य गणेश नेपाली इत्यस्य उपचारस्य क्रमे मृत्योः घटनायाः सत्यतत्त्वे अन्विष्य दोषिणः कठोरेण दण्डयितुम् सर्वकारस्य ध्यानम् आकर्षितम् वर्तते। उपवेशे राष्ट्रियसभायाः अध्यक्षेण नारायण प्रसाद दाहालेन राष्ट्रपति कार्यालयात् प्राप्तस्य विधेयकानाम् प्रमाणीकरणेन सह सम्बद्धस्य पत्रस्य विषयेण सभा विज्ञापिता आसीत्। राष्ट्रियसभायाः अपरोपवेशः सेवा आषाढ मासस्य एकत्रिंशे दिवसे बुधवासरे अपराह्नस्य सपादैकवादने वस्ता। प्रधानमन्त्री बालेन्द्र शाह निगदति ऊर्जाक्षेत्रम् नेपालस्य आर्थिक रूपान्तरणस्य वृत्त्युपार्जनानाम् सर्जनस्य औद्योगिकीकरणस्य हरित विकासस्य च कृते महत्वपूर्णः आधारो वर्तते। ईपान नाम्न्याः स्वतन्त्रोर्जोत्पादकानाम् संस्थायाः पदाधिकारिभिः सह ह्यः सिंहप्रासादे सम्भूते विमर्शने प्रधानमन्त्री शाह नेपालस्य निर्यातस्य व्यापारस्य च प्रवर्धने ऊर्जाक्षेत्रस्य उल्लेखनीय भूमिका भवतीति समस्पष्टयत्। प्रधानमन्त्री शाह नेपाले ऊर्जसः उत्पादनस्य प्रवर्धनस्य च क्षेत्रेष् समापन्नानाम् समस्यानाम् विषयः सर्वकारेण गभीरेण गृहीतोऽस्तीति अगदत्। तदवसरे ऊर्जाक्षेत्रस्य जलविद्युतः विकासस्य नैजक्षेत्रस्य निवेशनस्य अर्थतन्त्रस्य च विषयेष् विमृष्टमासीदिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। सूचना संचार मन्त्री डाक्टर विक्रम तिमल सिन्हा गोर्खा पत्र संस्थानस्य सार्वजनिक सेवा प्रसारणस्य च अवशिष्टम् लेखा परीक्षणम् आगामिनम् पौष मासान्तम् यावत् सम्पादयितुम् निर्दिशति। समय एव लेखा परीक्षणस्य सम्पादनस्य अभावेन सर्वकारीय निकायानाम् वित्तीयानुशासने सेवा प्रवाहे आय व्यय क्रियान्वयने च प्रत्यक्ष प्रभाव सृष्टोस्तीति चर्चयन् सूचना मन्त्री डाक्टर तिमल सिन्हा सार्वजनिक संचार संस्थाम् उत्तरदायिनीम् व्यवस्थिताम् च विधातुम् लेखा परीक्षणस्य कार्यम् उच्च प्राथमिकतायाम् स्थापयितुम् निरदिशत्। सार्वजनिक संचार माध्यमानाम् लेखा परीक्षणस्य अवस्थाया विषये ह्य मन्त्रालये सम्भूते विमर्शने संचार मन्त्री डाक्टर तिमल सिन्हा सार्वजनिक संस्थानस्य वार्षिक समीक्षया दर्शिता न्यूनता तत्कालं परिहरणीयेति बलं प्रादात्। नेपाली कांग्रेस दलेन प्रतिनिधि सभायाः नवीन नियमावल्याः कतिपय व्यवस्थानाम् निरसनस्य याचनाम् कृत्वा सर्वोच्च न्यायालये याचिका निवेदनम् पञ्जीकारितम् वर्तते। कांग्रेस दलेन ह्य पञ्जीकारितम् याचिका निवेदनम् आधृत्य सांवैधानिक न्यायपीठे विमर्शनाय न्यायालयेन अस्यैव आषाढस्य एकत्रिंशे दिवसे समय निर्धारितोऽस्ति। सर्वकारेण संघीय संसदि सांसदै उत्थापितानाम् प्रश्नानाम् समस्यानाम् च समाधानाय विहितायाः प्रगतेर्विषयस्य सम्बद्ध सांसदाय दूरभाषम् कृत्वैव विज्ञापनस्य व्यवस्थायाः क्रियान्वयनम् विहितम् वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यो विभिन्न मन्त्रालयैः सह समन्वयस्य कृते निश्चितैः अधिकारिभिः सह विहिते विमर्शने प्रधानमन्त्रिणः राजनीतिक परामर्शदात्रा असीम शाहेन एतस्य विषयस्य साप्ताहिकम् अनुगमनम् च मन्त्रिपरिषद कार्यालयात् विधातुम् व्यवस्था विहितास्तीति अवोचत्। लुम्बिनी बौद्ध विश्वविद्यालयेन आगामिनः आर्थिक वर्षस्य कृते 49 कोटीनाम् 78 लक्षाणाम् च रूप्यकाणाम् आयव्ययकम् वार्षिक नीति कार्यक्रमाश्च स्वीकृताः वर्तन्ते। शिक्षा खेलकूद मन्त्रिणः विश्वविद्यालयस्य सहकुलपतेश्च सस्मित पोखरेलस्य अध्यक्षतायाम् ह्य सिंहप्रासादे उपविष्टे उपवेशे एवम् आयव्ययकम् नीति कार्यक्रमाश्च स्वीकृताः वर्तन्ते। पशुपति क्षेत्र विकास कोषेण पाशुपत क्षेत्रे श्रावण मासस्य सोमवासरस्य कृते पूर्व कार्याणि प्रारब्धानि वर्तन्ते। मन्दिरस्य मूलभट्टस्य भण्डारिणः कोषस्य संचालक परिषदः सदस्यानाम् कोषस्य पदाधिकारिभिश्च सह आगामिनः श्रावण मासस्य सोमवासरस्य कृते विशेष व्यवस्थाम् पूर्व कार्याणि च प्रारब्धानि वर्तन्ते।